रघान्तश्च महतो महानी सत्या सत्यस्य करणानि वोचम् मृगद्रुगेष्वमिवत्सुतस्यास्य मदे अहिमिन्द्रो जघान अपंसेद्यावस्तभा यद्बृहन्तमारोदासी अवृणदन्तरिक्षम् सधार यत्पृथिवीम् अप्रसच्च सोमस्य दामद इन्द्रश्चकार सद्मे वप्राचो विमीमायमानेर्वज्रेण खान्यदृणन्धनीनाम् ऋधासृजत्पतिभृद्दीर्घजातैः सोमस्य दामद इन्द्रश्चकार सर्प्रवोल्रेन्वधिगत्या दभीतेर्विश्वमधावायुदमिद्धे अग्नौ सङ्गोभिरस्वैरसृजद्रथेभिस्वस्य रामद इन्द्रश्चकार स्वयीम् मयीम् धुलिमेतोरम्नात्सो अस्मावृण पारय स्वस्ति तव उत्स्नाय नजिमभिप्रतस्थ स्वस्य रामद इन्द्रश्चकार सोदञ्जम् सिन्धुमरिणान्महित्वा वज्रेणानभुजसस्वम्पीपेष अजवसो जबिनीभिर्विदृशन् सोमस्य रामद इन्द्रश्चकार स विद्वाङ्गोहम् गणीनामाविर्भवन्मृतदिष्टत्वरावृग् प्रतिश्रोणस्थाद्या अनगदष्ट सोमस्य रामद इन्द्रश्चकार भिनद्वलमङ्गीरोभिर्गृणालो विपर्वदस्य ब्रह्मिदान्यैरत् ऋणग्रोधांसि कृत्यमान्येषाम् सोमस्य रामद इन्द्रश्चकार स्वप्नेनाभ्युव्याचमूरिन्धनिञ्जघन्धरस्यम् प्रदधीमावः रम्भीचिदत्र विविधे हिरण्यम् सोमस्य रामद इन्द्रश्चकार नूनम् जाते प्रतिवरम् चरित्रे दूहीयदिन्द्रदक्षिणामघोनीः शिक्षास्तोतृभ्यो माति धद्भगो न बृहद्वदेव विदधे सुवीराः